देवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरं मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा साराचारतरं पुण्यं गुह्याद्गुह्यतरं शुभं महादेवस्य कवचं मृतसञ्जीवनामकं समाहितमना भूत्वा शृणुष्व कवचं शुभं श्रुत्वैतद्दिव्यकवचं रहस्यं कुरु सर्वदा पराभयकरो यज्वा सर्वदेवनिषेवितः मृत्युञ्जयो महादेव प्राज्ञां मां पातु सर्वदा दधानशक्तिमभयां त्रिमुखं षट्भुजप्रभुः सदाशिवोऽग्निरूपी मां आग्नेयां पातु सर्वदा अष्टादशभुजोपेतो दण्डाभयकरो विभुः यमरूपी महादेवो दक्षिणस्यां सदावतु खड्गाभयकरो धीरो रक्षो गणनिषेवितः रक्षोरूपी महेशो मां नैरृत्यां सर्वदावतु पाशाभय भुज सर्व रत्नाकर निषेवितः वरुणात्मा महादेव पश्चिमे मां सरावतु गदाभयकर प्राण नायक सर्वदा गतिः वायव्यां मारुतात्मा मां शंकर पातु सर्वदा शङ्खाभयकरस्थोमा नायक परमेश्वरः सर्वात्मान्तरदिग्भागे पातु मां शङ्कर प्रभुः भयकर सर्व विद्यानामधिनायकः ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ऊर्ध्वभागे ब्रह्मरूपी विश्वात्मा सदावतु शिरो मे शङ्कर पातु ललाटं चन्द्रशेखरः मध्यं सर्वलोकेशस्त्रिनेत्रो लोचने वतु भ्रूयुग्मं गिरिश पातु कर्णौ पातु महेश्वरः नासिकां मे महादेव ओष्टौ पातु वृषध्वजः जिह्वां मे दक्षिणामूर्तिर्दन्तान् मे गिरिशो वतु मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः पिनाकी मत्करो पातु त्रिशूली हृदयं मम स्तनौ पातु उदरं जगदीश्वरः नाभिं पातु विरूपम् पार्श्वौ मे पार्वती पतिः कटद्वयं गिरीशो मे पृष्ठं मे प्रमथाधिपः गुह्यं महेश्वरः पातु ममोरूपातु भैरवः जानुहि मे जगद्धर्ता जङ्गे मे जगदम्बिका पातु मे भार्यां भवः पातु सुतान् मम मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः सर्वाङ्गं मे सदा पातु कालकाल सदा शिवः एतत्ते कवचं पुण्यं देवतानां देवेन कीर्तितं सहस्रावर्तनं चास्य पुरश्चरणमीरितं यः पठेत् शृणुयान् नित्यं श्रावयेत् सुसमाहितः सकालमृत्युं निर्जित्य सदायुष्यं समश्नुते हस्तेन वा यदा स्पृष्ट्वा सञ्जीवयत्यसौ आधयो व्याधयस्तस्य न भवन्ति कदाचन कालमृत्युमपि प्राप्तम् असौ जयति सर्वदा अणिमादिगुणैश्वर्यं लभते मानवो वेदम् अष्टाविंशतिवारकम् युद्धमध्ये स्थितः शत्रु सद्यः सर्वैर्न दृश्यते तस्य वै विजयं लभते देव युद्धमध्येऽपि सर्वदा प्रातरुत्थाय सततं यः पठेत् कवचं शुभम् अक्षय्यं लभते सौख्यम् इह लोके परत्र च सर्वव्याधे